तथा विप्रेक्षमाणस्य वनं पुष्पितपादपं विचिन्वतश्च वैदेही किञ्चिच्छेषा निशा भवते षडङ्गवेदविदुषां कृतुप्रवरयाजिनां शुश्रावब्रह्मघोषांश्च विरात्रे ब्रह्मरक्षसाम् अथ मङ्गलवादित्रैः शब्दैः श्रोत्रमनोहरैः प्राबुध्यत महाबाहुः दशग्रीवो महाबलः विबुध्यत यथा कालं राक्षसेन्द्रः प्रतापवान् शस्तमाल्याम्बरधरः वैदेही मन्वचिन्तयते भृशं नियुक्तस्तस्याञ्च मदनेन मदोत्कटः न सतं राक्षसः कामं सशाकात्मनिगूहितुं स सर्वाभरणैर्युक्तः बिभ्रक्षियमनुत्तमां तां नगैर्बहुभिर्जुष्टां सर्वपुष्पफलोपगैः वृतां पुष्करणीभिश्च नानापुष्पोपशोभितां सदा मदैश्च विहगैः विचित्रां परमाद्भुतैः ईहामृगैश्च विविधैः जुष्टां दृष्टिमनोहरैः वीथिः सम्प्रेक्षमाणश्च मणिकाञ्चनतोरणाः नानामृगगणाकीर्णां फलैः प्रपदितैर्वृताम् अशोकवनिकामेव प्राविशत्सन्ततद्रुमाम् अङ्गनाश्यतमात्रं तु तं व्रजन्तमनुव्रजन् महेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः दीपिकाः काञ्चनीः काश्चित् जगृहस्तत्र योषितः बालव्यजनहस्ताश्च तालवृन्दानि चापराः काञ्चनैरपि भृङ्गारैः जह्रोः सलिलमग्रदः मण्डलाग्राविशेश्चैव गृह्यान्याः पृष्ठतो ययुः काचिद्रत्नमयीं स्थालीं पूर्णां पानस्य भामिनी दक्षिणा दक्षिणेनैव तदा जग्राहपाणिना राजहंसप्रतीकासं छत्रं पूर्णशशिप्रभं सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ निद्रामदपरीताक्ष्यः रावणस्योत्तमा स्त्रियः अनुजग्मः पतिं वीरं घरं विद्युल्लता इव व्यावृद्धहारकेयूराः समामृदितवर्णकाः समागलितकेशान्ताः सस्वेदवदनास्तथा घूर्णयन्त्यो मदशेषेण निद्रया च शुभाननाः स्वेदक्लिष्टाङ्गकुसुमाः सुमाल्याकुलमूर्धजाः प्रयान्तं नैरृतपतिं नार्यो मदिरलोचनाः बहुमानाच्च कामाच्च प्रिया भार्यास्तवन्वयोः स च कामपराधीनः पतिस्तासां महाबलः सीतासक्तमनामन्दः मदाञ्चितगतिर्भवौ ततः काञ्चीनिनादं च नूपुराणाञ्चनेश्वरं शुश्रावपरमस्त्रीणां सकभिर्मारुतात्मजः तञ्चाप्रतीकर्माणम् अचिन्त्यबलपौरुषं द्वारदेशमनुप्राप्तं ददर्श हनुमान् कपिः दीपिकाभिरनेकाभिः समन्तादवभासितां गन्धतैलाभसिक्ताभिः द्रियमाणाभिरग्रतः कामदर्पमदैर्युक्तं जिम्रताम्रायते क्षणं समक्षमिव कन्दर्पम् अपवेद्धशरासनं मथितामृतफेनाभम् अरजो वस्त्रमुत्तमं सलीलमनुकर्षन्तं विमुक्तं सक्तमङ्गदे तं पत्रविटपे लीनः पत्रपुष्पभनावृतः समीपमुपसङ्क्रान्तं निध्यातुपजग्रमे अवेक्षमाणस्तु ततो ददर्श कपिकुञ्जरः ರೂಪಯೌವನ ಸಂಪನ್ನಾಃ ರಾವಣಸ್ಯ ವರ ಸ್ತ್ರಿಯಃ ತಾಭಿಃ ಪರಿವೃತೋ ರಾಜ ಸುರೂಪಾಭಿರ್ಮಹಾಯಶಾಃ ತನ್ಮೃಗದ್ವಿಜ ಸಂಘುಷ್ಟಂ ಪ್ರವಿಷ್ಟ ಪ್ರಮದಾಃ ವರಂ ಕ್ಷೀಮೋ ವಿಚಿತ್ರಾಭರಣಃ ಶಂಕುಕರ್ಣೋ ಮಹಾಬಲಃ ತೇನ ವಿಶ್ವವಸಃ ಪುತ್ರಃ ಸದೃಷ್ಟೋ ರಾಕ್ಷಸಾಧಿಪಃ ವೃತಃ ಪರಮನಾರೇಭಿಃ ತಾರಾಭಿರಿವ ಚಂದ್ರಮಾಃ ತಂ ದದರ್ಶ ಮಹಾತೇಜಾಃ ತೇಜೋವಂತಂ ಮಹಾಗಪಿಃ ರಾವಣೋಯಂ ಮಹಾಬಾಹುಃ ಇತಿ ಸಂಚಿಂತ್ಯ ವಾನರಃ ಸ್ವಯಮೇವ ಪುರಾಶೇತೆ ಪುರಮಧ್ಯೆ ಗೃಹೋತ್ತಮೇ ಅವಪ್ಲುತೋ ಮಹಾತೇಜಃ ಹನುಮಾನ್ ಮಾರುತಾತ್ಮಜಃ ಸತಥಾಪ್ಯುಗ್ರತೇಜಃ ಸನ್ನೆ ನಿದ್ಧೂತಸ್ತಸ್ಯ ತೇಜಸಾ ಪತ್ರಕುಲ್ಮಾಂತರೇ ಸಕ್ತಃ ಹನುಮಾನ್ ಸಂವೃತೋ ಭವತೆ ಸತಾಮಸಿತ ಕೇಶಾಂತಾಂ ಶುಶ್ರೋಣೀಂ ಸಂಹದಸ್ತನೇಂ ದಿದರ್ಕ್ಷಣಸಿತಾಪಾಂಗಾಂ ಉಪಾವರ್ತತ ರಾವಣಃ ಇತ್ಯಾರ್ಷೇ ಶ್ರೀಮದ್ ವಾಲ್ಮೀಕಿಯೇ ರಾಮಾಯಣೇ ಆದಿಕಾವ್ಯೇ ಸುಂದರಕಾಂಡೇ ಅಷ್ಟಾದಶ ಸರ್ಗಃ.